ओम अथ द्वितीयोऽध्याय विनियोगः। ओम मध्यमचरित्रस्य विश्वऋषि महालक्ष्मीर्देवता उष्णिच्छन्दः शाकंभरी शक्तिः दुर्गा बीजं वायुस्तत्त्वं यजुर्वेदः स्वरूपं श्रीमहालक्ष्मी प्रीत्यर्थं मध्यमचरित्र जपे विनियोगः ध्यानम्। ओम अस्रक्त परशुं गदेशु कुलिशं पद्मं धनुष्कुंडिकां दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनं शूलं पाश सुदर्शने च दधतीं हस्तै प्रसन्नाननां सेवे सैरिभमर्दिनीं इह महालक्ष्मीं सरोजस्थिताम्। ओम ह्रीं ऋषिर्वाच देवासुरम् अबुद्ध्युद्धम् पूर्णमब्दशतम् पुरा महिषे सुराणाम् अधिपे देवानां च पुरंदरे तत्रासुरैर्महावीर्यै देवसैन्यम् पराजितम् जित्वा च सकलान् देवान् इंद्रो भुन्महिषासुर ततः पराजिता देवा पद्मयोनिं प्रजापतिं पुरस्कृत्य गदास्तत्र यत्रे स गरुडध्वजौ यथाव्रतं तयोस्तद् महिषासुरचेष्टितं त्रिदशः कथयामासुर देवाभिभवविस्तरं सूर्येन्द्राग्ननिलेन्दूनां यमस्य वरुणस्य च अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति स्वर्गान् निराकृता सर्वे तेन देवगणा भुवि विचरन्ति यथा मर्त्या महिषेण दुरात्मना। एतद्वकथितं सर्वं मम रारी विचेष्टितं शरणं वप्रपन्नास्मो वदस्तस्य विचिन्त्यताम्। इत्थं निशम्य देवानां वचांशी मधुसूदनः चकारकोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ततोति कोपपूर्णस्य चक्रिणो वदनात्तत निश्चक्राम महत्तेज ब्रह्मण शंकरस्य च अन्येषां चैव देवानां शक्रादीनां शरीरतः निर्गतं सुमहत्तेज तच्चैक्यं समगच्छत अतीव तेजसः कूटं ज्वलन्तमिव पर्वतं ददशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलं तत्र तत्तेज सर्वदेव शरीरजम् एकस्तं तदभुन्नारि लोकत्रयं त्विषा यदभुञ्जाभवं तेजस्तेनाजायत तन्मुखं याम्येन चाभवन् केशा बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मं मध्यं चेन्द्रेण चाभवत् वारुणेन च जंघोरु नितम्बस्तेजसाभुव ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्कतेजसा वसुनां च कराङ्गुल्य कौबेरेण च नासिका तस्यास्तु दन्ता सम्भूताः प्राजापत्येन तेजसा नयनत्रितयं जग्गे तथा पावक तेजसा भ्रुवौ च सन्ध्ययोस्तेज श्रवणावनिलस्य च अन्येषां चैव देवानां सम्भवस्तेज शां शिवा ततः समस्तदेवानां तेजो राशि समुद्भवां तां विलोक्यमुदं प्रापुरमरा महिषादिता शूलं शूलात् विनिष्कृष्य ददौ तस्यै पिनाकदृक् चक्रं च दत्तवान् कृष्ण समुत्पाद्य स्वचक्रत शङ्खं च वरुण शक्तिं ददौ तस्यै हुतासन मारुतो दत्तवांश्चापम् बाणपूर्णे तथेशुधि वज्रमिन्द्र समुत्पाद्य कूलिशादमराधिपः ददौ तस्यै सहस्राक्षो घण्टामैरावतात् गजा कालदण्डाध्यमो दण्डं पाशं चाम्बूर्पतिर्ददौ प्रजापतिस्साक्षमालां ददौ ब्रह्मा कमण्डलं समस्तरोमकूपेषु निजरश्मिं दिवाकर कालश्च दत्तवान् खड्गं तस्या चर्म च निर्मलम् क्षीरोदनश्चामलम् हारमजरे च तथाम्बरे शूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वत् ग्रैवय्यकमनुत्तमम् अङ्गुलीयकररत्नानि समस्तास्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुं चाति निर्मलम् अस्त्राणनेकरूपाणि तथा भेद्यं च दंशनम् अम्लान् पङ्कजां मालां शिरस्यूरसि चापराम् अदन्दलति तस्यै पङ्कजं चाति शोभनं हिमवान् वाहनं सिंहं रत्नानि विविधानि च ददाव शून्यं सुरया पानपात्रं धनाधिप शेषश्च सर्वनागेषु महामणि विभूषितं नागहारं ददौ तस्यै धत्तेयः पृथिवीमिमाम् अन्यैरपि सरैर्देवी भूषणैरायुधैस्तथा सम्मानितानादोच्चै साट्टहासं मुहुर्मुहुः तस्यानादेन घोरेण कृष्णमापुरितं नभ अमायताती महता प्रतिशब्दो महानभूत् चुक्षुभू सकला लोका समुद्राक्ष च कम्पिरे चचाल वसुधा चेलु च महीधरा जयेति देवाश्च मुदा तामुचु सिंहवाहिनी तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तय दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्य ममरारय सन्नद्वाखिल सैन्यास्ते समुतस्तृदायुधा आ किमेतदिति क्रोधात् आभास्य मयि सासुर अभ्यधावत तं शब्दम् अशेषैरसुरैर्व्रत सददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बरां शोभिता शेषपातालां धनुर्जाने स्वनेन तां दिशो भुजसहस्रेण समन्ताद्वाप्य संस्थितां ततः प्रवर्वते युद्धं तया देव्या सुरद्विषां शस्त्रार्थै बहुधार्मुक्ते तादिपीतदिगन्तरं महिषासुरसेनानि चिक्षुराख्यो महासुर युधे चामरस्तान्यै चतुरङ्गबलान्वित रथानामयुतैर्षणभिर्रुख्याख्यो महासुर अयुध्यतायुतानां च सहस्रेण महाहनु पञ्चाशद्भिश्च नियुतै असीलो मा महासुर अयुतानां सतै षड्भिर्भास्कलो युयुधे रणे गजवाजी सहस्रोधै अनेकै परिवारित व्रतो रथानां कोट्या च युद्धे तस्मिन् युध्यत बिडालाख्यो युतानां च पञ्चाशद्भिरथायुतै युधे संयुगे तत्र रथानां परिवारित अन्ये च तत्रायुतसु रथनागयैर्वृता युधु संयुगे देव्या सह तत्र महासुरा कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा हयानां च व्रतो युद्धे तत्राभुन्मयि सासुर तोमरै बिन्दिपालैश्च शक्तिभिमुसलैस्तदा युयुधु संयुगे देव्या खड्गै परशुपट्टिशै केचिच्च चिक्षुपुशक्ति केचित् पाशां तथा परे देवीं खड्गप्रहारैस्तु ते त्वां हन्तुं प्रचक्रमु सापि देवी ततस्तानि सस्त्राणस्तानि चण्डिका लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणि अनायस्तानना देवी स्तूयमाना सुरर्षिभि मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरि सोऽपि क्रुद्धो धुतशठो देव्या वाहनकेसरि चचारासुरसैन्येषु वनेश्वी बहुताशन निश्वासान्मुचेयांश्च युध्यमा तैव सद्य संभूता गणः शतसहस्रश युधुस्ते परशुभिर् बिन्दिपालासि पट्टिशै नाशयन्तो सुरगणान् देवी शक्तिर्ब्रंहिताः अवादयन्त पटहान् गणाः शङ्कास्तथा मृदङ्गाश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च सदसो निजघान महासुरान् पातयामास चैवान्यान् घण्टास्वन विमोहिता असुरान् भुवि पाशेन बद्ध्वा चान्यान् कर्षयत् केचिद्विदा कृताक्तिक्ष्णैः खड्गपातैः तथा परे विपोतिता निपातेन गदया भुवि शेरते वेमुश्च केचिद्रुधिरं मुसलेन मृसंहता केचिन्ने पतिता निरन्तरा सरौद्री शेनानुकारिण प्राण मुमुचु स्त्री दशार्दन केषाञ्चिद् बाहवच्छिन्ना छिन्न ग्रीवा तथा परे शिरांसि पेतुरन्येषा मन्ये मध्ये विदारिता विच्छिन्न जङ्घास्त्वपरे पेतुरव्या महासुरा एकबाहुचिचरणा केचिद्देव्या द्विधाकृता छिन्नेऽपि चान्ये शिरसि पतिता पुनरुत्थिता कबन्धायुधुर्देव्या गृहीत परमायुधा नुनुतुश्चापरे तत्र युद्धे तुर्यलयासिता कबन्धा छिन्नशिरस खड्गसष्टुष्टिपाणय तिष्ठ तिष्ठेति भासन्तो देवी मन्ये महासुरा पातितैरतनागास्वैर सुरैश्च वसुन्धरा अगम्या सा भवस्तत्र तत्राभूत्स महारण सौणितौध्या महानद्य सद्यस्तत्र वृषश्रुः मध्ये चासुरसैन्यस्य वारणा सुभवाजिन क्षणेन तन्महासैन्यम् असुराणां तथाम्बिका निन्ये क्षयं यतावन्नि तृणदारु महाचय स च सिंहो महानाद मुत्सृजन्धुतकेशर शरीरेभ्यो मरारेण मसूनीव विचिन्वति देव्या गणैश्च तैस्तत्र कृतं युद्धं महासुरैः तदेषां दुदुशुरुदेवा पुष्पवृष्टिमुचो दिवि ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये द्वितीयो इति जगदम्बार्पणमस्तु हरिः ओम्।